सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि। अतः आरम्भे एकवारं तत्र पुनस्मरणं कृत्वा अग्रे सरामः। तर्हि तत्र सुजाता भगिनी एकवारं पठति वा तत्र इदं शब्दस्य स्त्रीलिङ्गरूपाणि, तत्र पुटसङ्ख्या अस्ति 56।
आम् महोदय। इदं शब्दः स्त्रीलिङ्गरूपाणि।
किञ्चित् उच्चैः वदतु भगिनि।
आम् महोदय। सम्यक् अस्ति वा महोदय?
सम्यक् अस्ति भगिनि, इदानीं सम्यक् अस्ति।
इदं शब्दः स्त्रीलिङ्गरूपाणि। इदम् इमे इमाः, इमाम् इमे इमाः, अनया आभ्याम् आभिः, अस्यै आभ्याम् आभ्यः, अस्याः आभ्याम् आभ्यः, अस्याः अनयोः आसाम्, अस्याम् अनयोः आसु।
समीचीनं भगिनी, अस्तु। इदानीं उषा भगिनी तत्र प्रथमविभक्तौ वाक्यं वदतु, तत्र बहुवचने किमपि सरलवाक्यं।
बहुवचने वा महोदय?
बहुवचने।
इयं यमे इमाः, इमाः महिलाः गृहं गच्छन्ति।
इमे इमाः महिलाः गृहं गच्छन्ति। समीचीनं भगिनि, समीचीनं। प्रिया भगिनी नमस्कारः। अस्तु अग्रे। नमस्कार नमस्कार भगिनि, पुटसङ्ख्या अस्ति 56। अस्तु अग्रे वेदा भगिनी, इदानीं तत्र द्वितीयविभक्तौ बहुवचने।
इमाः एकनिमिषं, श्रीलिङ्गं बालिकाः, इमाः बालिकाः क्रीडन्ति।
द्वितीयविभक्तौ इदानीं खलु?
ओ सोरि सोरि सोरि,
उषा भगिनी प्रथमविभक्ति कृतवती।
उषा भगिनी कृतवती। किं किमर्थं बालिकाः इमाः कन्दुकशब्दस्य बहुवचनं किमस्ति?
कन्दुकाः, किन्तु तत्र इमाः कन्दुकाः इति भवति वा?
न, किं वदामि, बालिकाः इमाः
पश्यन्तु।
न, ऐ हाव् टु गिव् अ आब्जेक्ट्, नो देट्?
पश्यन्तु इति अपि आब्जेक्ट् एव अस्ति खलु,
पश्यन्तु वा?
इमाः इति कर्मपदं भवति तत्र।
इमाः चित्रा नै किं चित्रं चित्र
भगिनि, तत्र यत् शोभा भगिनी उक्तवती तत्र इमाः बालिकाः पश्यन्तु, तत्र क्रियापदं किम् अस्ति वेदा भगिनी?
पश्यन्तु यु मीन्स् यु यु त्वं
न न अस्तु, एतत् स्वीकुर्मः, इमाः बालिकाः पश्य इति।
इमाः बालिकाः पश्य,
अस्तु। तत्र क्रियापदं किम् अस्ति?
पश्य
अस्तु। एतस्य क्रियापदस्य पुरुषः कः?
पश्य
वचनं पुरुषः वदतु।
त्वं पश्य, त्वं पश्य,
त्वं पश्य, अस्तु। इदानीं तत्र त्वं किं पश्य?
त्वं इमाः पश्य।
इमाः काः?
इमाः
तत्र वाक्यमासीत् इमाः बालिकाः पश्य इति, अतः तत्र पूर्णवाक्यं वदतु इदानीं
त्वम् इमाः बालिकाः पश्य.
अस्तु, तत्र कर्मपदं किम् अस्ति?
इमाः बालिकाः.
अस्तु, विभक्ति का तत्र?
द्वितीया.
समीचीनम्. अस्तु अस्तु भगिनि, समीचीनं
महोदय.
अभ्यासं करणीयं भगिनि, तावदेव अभ्यासः करणीयः, नो चेत् मनसि स्थापितः न भवति, तावदेव अभ्यासः. चिन्ता मास्तु भगिनि, वर्गः किमर्थम् अस्ति चेत् तत्र अभ्यासार्थमेव, अतः चिन्ता मास्तु. अस्तु अस्तु, ललिता भगिनी अग्रे तृतीया विभक्ति बहुवचने.
आभिः बालिकाभिः चित्राणि सुन्दराणि सन्ति.
तत्र बालिकाभिः चित्राणि सुन्दराणि सन्ति
सन्ति,
तत्र अर्थः कः?
बालिकाभिः अच्छा अच्छा, बालिकाभिः चित्राणि सुन्दराणि सन्ति.
किं 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 भगिनि पुनः?
आभिः लिखिता आभिः बालिकाभिः लिखितानि चित्राणि.
अस्तु अस्तु अस्तु, समीचीनम्. अस्तु अस्तु अस्तु, इदानीम् अवगतम्. अस्तु, आभिः बालिकाभिः लिखितानि चित्राणि. अस्तु, समीचीनं भगिनि, इदानीम् अवगतम्. अस्तु, धन्यवादः. समीचीनं, समीचीनं भगिनि. अस्तु, धन्यवादः. अस्तु, नरेश् महोदय, इदानीं चतुर्थी विभक्ति बहुवचने.
आभ्यः बालिकाभ्यः पुष्पाणि ददातु.
पुष्पाणि ददातु, समीचीनं महोदय. अस्तु, प्रिया भगिनी, इदानीं तत्र षष्टि इदं पदस्य षष्टिविभक्ति बहुवचने, किमपि सरलवाक्यम्. भगिनी सम्यक्तया न श्रूयते भगिनी, प्रिया भगिनी न श्रूयते भगिनी, भवती वदति इति तावदेव जानामि, किन्तु भवती किं वदति इति. हा, इदानीं श्रूयते. हा
महोदय, इदानीं श्रूयते वा?
श्रूयते श्रूयते भगिनी, इदानीं श्रूयते. हा,
क्षम्यतां महोदय, किञ्चित् क्लेशः अस्ति.
अस्तु भगिनि, अस्तु.
इदानीं श्रूयते वा महोदय?
इदानीं श्रूयते भगिनि, श्रूयते.
आसां बालिकानां पिता उद्यानं गच्छति.
समीचीनं समीचीनं, धन्यवादः भगिनि.
क्षम्यतां महोदय,
चिन्ता मास्तु भगिनि, चिन्ता मास्तु, भवति एव. अस्तु, तर्हि इदानीं तत्र सप्तमी एव अस्ति, तत्र कोऽपि अथवा कापि वक्तुम् इच्छति वा सप्तमी विभक्तौ? वाक्यं तत्र शोभा भगिनी वक्तुम् इच्छति वा?
आम् महोदय, तत्र आसु बालिकासु तत्र इन्दु अस्यां बालिकायां किमपि अस्ति इति. आसु बालिकासु गुणाः उत्तमाः सन्ति.
उत्तमाः गुणाः सन्ति,
उत्तमाः गुणाः सन्ति महोदय.
तावदेव, आसु सर्वासु बालिकासु उत्तमाः गुणाः सन्ति.
आसु बालिकासु का श्रेष्ठा इति?
तदपि आसु बहु उत्तमं भगिनि, वेदा भगिनी अति उत्तमं. का श्रेष्ठा, समीचीनं. प्रिया भगिनी
तदेव अहम् अप्ते वक्तुम् आसु सीता उत्तमा इति.
सीता उत्तमा, समीचीनं. वंशीसुता भगिनी नमस्कारः भगिनी, वंशीसुता भगिनी न श्रूयते भगिनी.
नमस्ते महोदय, श्रूयते वा?
हा, इदानीं श्रूयते. हा, नमस्कारः भगिनी.
किं प्रचलति?
पुटसङ्ख्या अस्ति 56 भगिनी.
ओ अस्तु,
इदं शब्दस्य स्त्रीलिङ्गरूपाणि.
अभ्यासः भविष्य
सत्यम्. अस्तु, इदानीं तत्र
महोदय आसु वार्तासु सिन्धु पि वि सिन्धु सिन्धुयाः
आसु वार्तासु तदनन्तरं किम् आसीत्
वार्तासु अद्य आसु वार्तासु पि वि सिन्धु सिन्धुयाः
सिन्धुयाः इति कथं भवति सिन्धु इति पदं
सिन्धु सिन्धु धेनु
धेनु अथवा तादृशमस्ति वधु इति चमु तत्र किमस्ति चम्बोः
सिन्धोः सिन्धोः
सिन्धु प्रायशः सिन्धु भोः इति वा सिन्धोः वा कोऽपि स्मरति वा
सिन्धोः न ऊ न
सिन्धोः एव अस्तु धन्यवादः सिन्धोः
धेनोः
हा सिन्धोः धन्यवादः भगिनी हा समीचीनं हा सिन्धोः
सिन्धोः विषयं महत्त्वपूर्णमस्ति
समीचीनं भगिनि
तत्र सिन्ध्वाः इति भवितुम् अर्हति महोदय धेन्वाः अपि भवति द्वे अपि
सिन्ध्वाः
सिन्धोः
सिन्धोः अस्तु समीचीनं धन्यवादः भगिनि अस्तु
धन्यवादः
समीचीनं भगिनि अस्तु इदानीम् अत्र अग्रे सरामः तर्हि तत्र वयम् अभ्यासम् आरम्भं कृतवन्तः वा अथवा न
महोदय भवान् उक्तवान् कथा या श्लोका
तस्मिन् विषये अस्तु अस्तु भगिनि इदानीं वदामि अस्तु अस्तु समीचीनमेव अस्तु अतः तत्र चिन्तनम् एतदस्ति सर्वेषां तत्र लाभाय तत्र यदि यदि ये इच्छन्ति तत्र ते एव यदि इच्छन्ति तर्हि कर्तुं शक्नुवन्ति न इच्छन्ति चेत् कोऽपि किमपि कापि समस्या नास्ति किन्तु चिन्तनम् एतदस्ति तत्र भर्गस्य आदौ तत्र दशनिमिषं यावत् अथवा तत्र दशनिमिषः किञ्चित् अधिकं वा न्यूनं तत्र कथां स्वीकृत्य अथवा तत्र श्लोकं स्वीकृत्य अथवा तत्र यः किमपि कोऽपि पाठः यः वयं यं पूर्वमेव वयं कृतवन्तः तस्मिन् विषये तत्र लोट्लकारस्य पुनस्मरणं कुर्मः अभ्यासं कुर्मः इति किमपि तादृशं किन्तु तत्र यः तत्र वदति तत्र दशनिमिषं यावत् तत्र सः अथवा सा एव तत्र स्वशब्दैः किञ्चित् वक्तव्यमस्ति तत्र अभ्यासार्थं तत्र लघुवर्गः चालयति इति चिन्तयन्तु किन्तु तत्र यदि कथा अस्ति चेत् दशनिमिषेषु पूर्णतया न कर्तुं शक्नुमः किन्तु यावत् कर्तुं शक्नुमः तावत् करोतु तदनन्तरं यद् न कर्तुं शक्नुमः तद् गृहपाठरूपेण स्वीकुर्मः अथवा यदि अन्य कोऽपि तत्र अग्रे गन्तुम् इच्छति चेत् तदपि कर्तुं शक्नुमः सर्वे अवगच्छन्ति वा तत्र आशयः कः इति तत्र सुभाषितमपि सम्यक् भगिनी सुभाषितं श्लोकं किमपि तत्र केवलम् अभ्यासार्थं एतावत् तत्र किमस्ति तत्र वर्गे तत्र यदि वयमेव स्वशब्दैः वदामः तत्र लाभः अस्ति अतः तत्र किन्तु वर्गे तत्र झटिति वक्तुं न शक्नुमः अस्तु गृहे किञ्चित् तत्र सिद्धा भूत्वा आगत्य वर्गे वदन्तु किन्तु तदनन्तरं किं भवति तादृशं यदि कुर्मः वारं वारं तदनन्तरं झटिति अपि तत्र संस्कृतेन वक्तुं शक्नुमः तत्र एतत् चिन्तनं कुतः आगतं तदपि वदामि तत्र न्यायशास्त्रवर्गे एतत् ते कुर्वन्ति तत्र एतत् स्वरूपमहोदयेन आरम्भं कृतं तत्र वर्गः तत्र न्यायशास्त्रस्य पुस्तकं तत्र विद्याधरी इति अस्ति तत्र विद्याधर्यां किं कुर्मः वर्गे प्रायशः परिच्छेदम् अथवा परिच्छेदद्वयम् एकस्मिन् पुटे एव अस्तु एकस्मिन् पुटे परिच्छेदम् अथवा परिच्छेदद्वयं तावत् एव कुर्मः वर्गे सार्ध एकघण्टानन्तरं तावदेव कुर्मः किन्तु तत्र बहु किमपि अस्ति तत्र तस्मिन् परिच्छेदे अतः तत्र तदनन्तरम् अग्रिमवर्गे किं तत्र कोऽपि अथवा कापि पूर्वस्मिन् वर्गे किम् अभवत् इति संक्षिप्तरूपेण तत्र वदति सारांशत्वेन किन्तु तत्र किं तत्र सार्ध एकघण्टा यावत् किम् अभवत् तत्र यदि सारांशत्वेन वक्तुम् इच्छामः तत्र अस्माकम् अभ्यासः अपि भवति खलु तत्र किं किम् आसीत् किं किं पठितवान् स्वरूप महोदय तत्र किं के अंशाः आसन् तत्र अवगन्तुम् इति तत्सर्वं भवति तदनन्तरं स्वशब्दैः यदि वदामः तत्र किं भवति लाभः अस्ति तत्र पुस्तके यत् वाक्यम् अस्ति तदेव वाक्यं स्वीकृत्य किञ्चित् परिवर्त्य वक्तव्यमस्ति यद्वाक्यं साक्षात् वाक्यम् इति वदामः तत्र कोऽपि लाभः नास्ति किन्तु किञ्चित् परिवर्तनं कृत्वा तत्र तुमुन् अस्ति चेत् अत्र त्वान्तरूपं स्थापयित्वा अथवा अतः अस्ति चेत् यतः इति स्थापयित्वा तत्र परिवर्तनं तत्र सरलपरिवर्तनं तत्र किं महत्त्वपूर्णपरिवर्तनं तत्र नूतनतया अंशाः तत्र स्थापनीयाः इति किमपि नास्ति अतः श्लोकः वा सुभाषितं वा कथा वा किमपि स्वीकृत्य दशनिमिषं यावत् यदि तत्र कुर्वन्ति चेत् लाभः यत् कर्तुम् इच्छन्ति तत्र PDF इति किमपि यदि मां प्रेषयन्ति तद् अहं तत्र आयोजनं करोमि तत्र स्मरणपत्रे अतः तत्र सर्वे अवगन्तुं जानन्ति अस्तु एषः विषयः अद्य भवति इति अपि तत्र यदि कोऽपि प्रश्नः पृच्छति चेत् तत्र उत्तरमपि दातव्यमस्ति
अवश्यं महोदय कुर्मः एकमेकं क्रमः नीत्वा अग्रे कः करोति इति निश्चयः कृत्वा निश्चयं कृत्वा तत्र चेत् तत् सम्यक् भवति समयः अपि भवति एकं सप्ताहवारमपि अस्ति किल तत्र अस्तु तर्हि शनैः कर्तुं शक्यते
शनैः तत्र एकस्मिन् वर्गे एकः करोति चेत् लाभः अतः तत्र समयः अपि अस्ति तत्र अग्रिमे सप्ताहे एव करणीयम् इति नास्ति तत्र
दशनिमिषानि कर्तुं दशनिमिषाः किल निमिषाः
दशनिमिषं यावत् तावदेव
निमिषं वा निमिषः वा महोदय तत्र
दशनिमिषं यावत् यावत् इति अस्ति चेत् तत्र तस्मात् प्राक्
पञ्चनिमिषं कर्तुं शक्यते इति भाति दशनिमिषः
पञ्चनिमिषः वा दशनिमिषः वा तत्र किन्तु तत्र प्रयत्नं यदि कुर्मः लाभः अस्ति इति तद् एतादृशेन अभ्यासेन किं भवति तत्र अग्रे गत्वा तत्र सर्वे भवन्तः सर्वे तत्र अग्रे गत्वा तत्र स्ववर्गाः स्ववर्गं चालयितुं सिद्धाः भवनीयः खलु यदि तत् भवति न वा यदि भवन्तः इच्छन्ति न वा किन्तु तत्र तादृशशक्तिः अस्मासु भवेत् खलु यदि तत्र वर्षद्वयं वर्षत्रयं संस्कृतस्य अध्ययनं यदि वयं कृतवन्तः तत्र अभ्यासपुस्तकस्य अथवा विभक्तिवल्लर्याः तत्र तादृश तत्र वर्गं चालयितुं शक्तिः अस्मासु अस्ति अतः तत्र केवलं तत्र विश्वासः आवश्यकः अस्ति तावदेव शक्तिः अस्ति एव किन्तु शक्तिः अस्मासु अस्ति इति विश्वासः आवश्यकः तावदेव अस्तु प्रश्नः अस्ति वा अस्मिन् विषये
का करोति अग्रिमकक्षायां
हा तत्र वालण्टियर् इति अथवा तत्र मां सूचयतु ईमेल् द्वारा सूचयतु अपि तत्र सूचनानन्तरम् अहं किं करोमि तत्र गूगल् डाक्युमेण्ट् किमपि कृत्वा तत्र टेबल् स्थापयित्वा तत्र टैम् तत्र कः करोति कस्मिन् वर्गे इति तद् सर्वं स्थापयित्वा अहं प्रेषयामि. अतः मां सूचयतु, ईमेल् द्वारा सूचयतु. इदानीम् एव सूचनीयम् इति
कथा अपि श्रावयितुं शक्यते न महोदय?
सत्यं भगिनि, यदि पूर्णतया न कर्तुं शक्नुमः यद् दशनिमेषेषु यद् वयम् अवगतवन्तः इति तत्र सारांशत्वेन एषा कथा अस्ति स्ववाक्यैः अस्यां कथायाम् अहम् एतद् अवगतवती अथवा एतद् अवगतवान् इति अथवा तत्र स्वशब्दैः वदतु. तत्र सम्भाषणसन्देशे तत्र तु बालामोदिनी तत्र अनेकाः कथाः सन्ति खलु, अतः तत्र वयमपि तत्र तत्र बहु कालम् अभवत् इदानीं कथां न कृतवन्तः, प्रायशः अग्रिमवर्गे कथाम् एव पठामः. किन्तु तदपि समीचीनमेव.
चेत् व्याकरणविषये अपि वक्तुं शक्यते एतावत् प्रत्ययं नीत्वा तस्मिन् विषये.
सत्यं, केवलं तत्र अभ्यासार्थं, तत्र यत् अभिरुचिः कुत्र अस्ति तं विषयं प्रतिपादयतु तत्र, तावदेव
विचारः महोदय. धन्यवादः.
अस्तु तर्हि, अस्तु. अतः तत्र सर्वे उत्सुकाः वा? किं भगिनि?
अस्तु महोदय, करिष्यामः.
अस्तु, उषा भगिनी किम् उक्तवती?
आरम्भं करोति उषा भगिनी वा?
भवती उषा भगिनी सिद्धा वा? अस्तु भगिनी,
बहु प्रतिदिनम् एकम् एकं वाक्यं योजयित्वा कृतवती.
अस्तु, इदानीं भवती सिद्धा वा इदानीम्?
आं महोदय.
अस्तु, उत्तमं भगिनी, धन्यवादाः. अस्तु, इदानीं भवती एव तत्र प्रतिपादयतु.
यदि किमपि क्लेशः अस्ति क्षम्यतां महोदय.
चिन्ता मास्तु भगिनी, तत्र एतत्तु सर्वे अवगच्छन्ति, तत्र वयं सर्वे छात्राः एव. अस्तु, अतः चिन्ता मास्तु, धैर्येण तत्र विश्वासेन वदतु.
डिक्शनरी उपयुज्य कृतवती.
शब्दकोशम् उपयुज्य. अस्तु,
शब्दकोशम्. एकदा कुमारः गीता नाम्ना नवदम्पतिः नूतनगृहम् अप्रविशत्. अग्रिमे अल्पाहारं कुर्वन्तौ वातायनद्वारा गृहे वस्त्राणि अवलम्बयन्ती महिलां, तस्य महिलायाः नाम अस्ति रमा, दृष्ट्वा गीता कुमारम् अवदत् तानि वस्त्राणि न सम्यक् क्षालितानि, तस्य उत्तमं फेनकम् आवश्यकम् इति. तद् दृष्ट्वा तूष्णीम् अतिष्ठत्. प्रतिवारं यदा एतद् दृश्यं पश्यति तदा सा तथैव पतिं विवृणोति स्म. एकदा गीता यदा पार्श्वगृहे स्वच्छतया क्षालितानि वस्त्राणि दृष्ट्वा आश्चर्येण स्वपतिम् अवदत्, अन्ते सा वस्त्राणि कथं सम्यक् क्षालनीयानि इति ज्ञातवती. कः वा इति उत्तमम् अस्ति महोदय, को वा इति उत्तमम् अस्ति महोदय?
द्वयमपि समानमेव, तत्र कः नाम को. यदि तत्र अग्रे अकारः तत्र स्वरः किमपि अस्ति चेत् तत्र को इति भवति इति मन्ये. सन्धि, अतः तत्र अग्रे स्वरः भवेत् खलु भगिनि?
आं महोदय.
विसर्गस्य अग्रे
अकारः.
को वा ताम् अपाठयत्,
तत्र प्रायश कः वा, कः वा,
कः वा. पतिः कुमारः अवदत् अहं प्रातःकाले शीघ्रम् उत्थाय अस्माकं वातायनं सम्यक् क्षालितवान्, अस्माकं जीवनमपि तथैव.
उत्तममस्ति भगिनि, बहु उत्तममस्ति भगिनि.
अन्यान् वयं स्वस्य मनसः वातायनेन एव पश्यामः. यावत् स्वच्छं मनः तावत् स्वच्छम् अस्माकं दृष्टिः. यदि अस्माकं जीवनं क्रोधः ईर्ष्या अथवा ईर्ष्या महोदय
ईर्ष्या तत्र अग्रे किम् अस्ति इति
ईर्ष्या
यदि अस्माकं जीवनम्
अस्माकं जीवनं क्रोधः ईर्ष्या नकारात्मकचिन्ता निराशा आदिभिः बाधितं तर्हि
अस्तु अतः तत्र सर्वत्र तृतीयविभक्ति भगिनी
बाधितं तर्हि अन्येषां विषयाणां निर्णयः न करणीयः इति महोदय
उत्तममस्ति भगिनी धन्यवादः
वेरि नैस्
समीचीनमस्ति भगिनी तत्र कथापि समीचीनमस्ति तत्र तत्त्वं यत् कथा बोधयति तदपि समीचीनमस्ति धन्यवादः भगिनी
यावत् स्वच्छं मनः तावत् स्वच्छम् अस्माकं दृष्टिः इति शीर्षिका महोदय
बहु उत्तममस्ति भगिनि धन्यवादः भगिनी श्लाघनीयः उत्तमं भगिनि धन्यवादः इदानीं तत्र शुभारम्भं कृतम् अस्माकं
धन्यवादः
भगिनि तत्र भगिनी तत्र एकवारं यद् भवती उक्तवती तत् एकवारं लेखित्वा तत्र मां प्रेषयति वा
आं महोदय
धन्यवादः भगिनी उत्तमम् आसीत् समीचीनम् अस्तु उत्तमम् अतः तत्र वयं सर्वे एतादृशं कर्तुं शक्नुवन्ति अतः चिन्ता मास्तु विश्वासेन कुर्वन्तु सर्वे अस्तु धन्यवादः भगिनी अस्तु अग्रे सरामः तर्हि तत्र पाठे तत्र प्रथमाभ्यासः अपि न कृतवन्तः इति मन्ये खलु अथवा कृतवन्तः वा पेज्
56 दशमबिन्दुतः कृतवन्तः इति मन्ये महोदय
अस्तु अस्तु भगिनि अस्तु इदानीं ततः अग्रे सरामः अस्तु तर्हि
एकादश
बिन्दुतः अस्तु अस्तु तर्हि तत्र नरेश महोदय करोति वा तत्र तत्र एतत् इति स्थाने तत्र एतत् वा अथवा इदं वा किमपि स्थापितुं शक्नोति
कुत्र एकादश
एकादशबिन्दुः
कृष्णस्य एतत् अपेक्षां विमृश्य अर्जुनः निर्णयं स्वीकृतवान् अपेक्षां अत्र तु द्वितीया विभक्तिः अस्ति कृष्णस्य इमाम् अपेक्षां विमृश्य अर्जुनः निर्णयं स्वीकृतवान्
हा समीचीनं महोदय समीचीनम् अस्तु अग्रे वेदा भगिनि
हा महोदय भोगे विद्यमानायाः भोगे विद्यमानायाः एतत् प्रीतेः कारणात् दुःखम् अनुभवन्ति जनाः प्रीतेः प्रीतिशब्दस्य काव्यभक्ति षष्टिविभक्ति प्रीतेः वा भोगे विद्यमानायाः अस्याः प्रीते कारणात् दुःखम् अनुभवन्ति जनाः
हा समीचीनं भगिनि हा उत्तमम् अस्तु
महोदय तत्र एकः संशयः तत्र पञ्चमे भवनीयं वा अथवा षष्टि भवनीयं वा कारणात् इति अस्ति किन्तु
किन्तु कस्य कारणात् इति
कस्य
कस्मात् इति तत्र
कस्मात्
कारणात् प्रीतेः कारणात् हा तदपि समीचीनमेव
प्रीतेः इति पञ्चमी भवति न प्रीतेः सत्यं
सत्यं अतः तत्र रूपं तु समीचीनमेव तत्र अस्याः इति एव
सत्यं तत्र पञ्चमी नो चेत् षष्ठी पञ्च समानरूपमेव नास्ति न महोदय
किन्तु
कारणात् इति तत् कारणात् इत्यस्य अन्वयं
सत्यं भगिनि तत्र प्रायशः तत्र कस्मात् कारणात् इति वदामः किन्तु तत्र प्रीतेः कारणात् इति तत्र षष्ठी अपि भवितुमर्हति भगिनि पञ्चमी अपि
भवितुमर्हति
सत्यं सत्यं भगिनि सत्यं सत्यं
तत्र षष्ठी एव वा
षष्ठी अपि भवितुमर्हति पञ्चमी अपि तत्र न षष्ठी 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 एव षष्ठी एव षष्ठी एव षष्ठी एव तस्य कारणात् इति तत्र
कारणात्
हा इति तत्र हा कस्मात् कारणात् इति प्रश्नः किन्तु तत्र तत्र प्रीतेः कारणात् इति तत्र प्रायशः तत्र षष्टी एव समीचीनमिति मन्ये भगिनि किन्तु तत्र पञ्चमी अर्थः एव अस्तु इदानीं
कस्मात् कारणात् अस्ति चेत् कस्मात् इति पञ्चमी भवति
न कस्मात् तत्र किमर्थं चेत् कारणात् इति प्रश्नस्य प्रश्नवाचकस्य विशेषणम् अस्ति तत्र
आम्
हा अतः तत्र
अस्याः प्रीतेः कारणात्
प्रीतेः तत्र षष्टि अपि भवितुम् अर्हति इति मन्ये भगिनि हा किन्तु इदानीं सम्यक्तया अस्तु तत्र किञ्चित् चिन्तयित्वा वदामि भगिनि उत्तमः प्रश्नः एव हा धन्यवादः किञ्चित् किञ्चित् चिन्तयित्वा वदामि भगिनि धन्यवादः किन्तु रूपसामान्यम् अस्ति अतः क्लेशः नास्ति किन्तु समीचीनमेव हा
क्षम्यतां महोदय यदि पुल्लिङ्गशब्द अस्ति चेत् तत्र प्रीतेः कारणात् यदि पुल्लिङ्गशब्द उपयोगं करणीयं चेत् अस्याः स्वभावः यदि
तत्र स्वभावस्य स्वभावस्य कारणात् इति एव अस्ति भगिनि इति एव तत्र हा इति अहं चिन्तयामि अतः एव तत्र षष्ठी इति उक्तवान् हा इति उक्तवान् तत्र किन्तु पञ्चमी अपि भवितुम् अर्हति न वा इति इदानीं न जानामि किन्तु हा अतः तत्र षष्ठी भवति इति मन्ये पञ्चमी अपि भवितु भवति न वा इति प्रश्नः अस्ति मम मनसि अपि अस्तु अतः तत्र किञ्चित् चिन्तयित्वा वदामि अस्तु अग्रे तत्र सुजाता भगिनी अग्रिमं करोति वा
सीता मातरम् अनुसरन्तु सीता मातरं द्वितीया विभक्ति अस्ति
हा समीचीनं भगिनि हा अतः
इमां
हा इमां
गीतामातरम् अनुसरन्तु
हा इमां गीतामातरम् अनुसरन्तु समीचीनम् अस्तु अग्रे ललिता भगिनी अग्रे अन्तिमं
धन्यवादः
भगिनि
वदामि
वा वदन्तु भगिनि
जीवनवृत्त्या जीवनम् आनन्दमयं भवेत् अनया जीवनवृत्त्या जीवनं आनन्दमयं भवेत्
हा समीचीनं भगिनि उत्तमं हा अनया जीवनवृत्त्या जीवनम् आनन्दमयं भवेत् समीचीनम् अस्तु अग्रे प्रिया भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा
आं महोदय अधः कतिचन वाक्यानि सन्ति तेषु अधोरेखाङ्कितं शब्दम् उद्दिश्य किं शब्दः लिङ्गरूपाणि उपयुज्य प्रश्नवाक्यानि लिखत यथा सीता जनकपुत्री आसीत् प्रश्नः अस्ति सीता का आसीत् इति द्वितीय जनकः भूमौ सीतां प्राप्तवान् प्रश्नः अस्ति जनकः भूमौ कां प्राप्तवान्
कां प्राप्तवान् समीचीनं भगिनि धन्यवादः वंशीसुत भगिनि अग्रे
आं महोदय सीतया सह रामस्य विवाहः अभवत् तत्र प्रश्नवाचक कया सह रामस्य विवाहः अभवत् महोदय
कया सह रामस्य विवाहः अभवत् समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
हनुमान् सीतायै अङ्गुलीयकं दत्तवान् हनुमान् कस्यै अङ्गुलीयकं दत्तवान्
हा समीचीनं उषा भगिनि
महोदय रामः सीतायाः ऋते एकवर्षम् अवसत् षष्टिविभक्ति अस्ति रामः कस्याः ऋते एकवर्षम् अवसत्
ऋते इति
पञ्चमी अस्ति महोदय सीतायाः ऋते
अस्ति चेत्
पाठे वयं पठितवन्तः किल
उपयोगं
कुर्मः चेत् पञ्चमी भवति
कृते अपि ऋते भेदः
न न भेदः अस्ति भगिनि कृते इति कृते इत्युक्ते फार् इति अर्थे तत्र षष्टि कृते कृते इति ऋते इत्युक्ते तत् विना इति अर्थे तत् एक्सेप्ट् इति तत्र सा नास्ति इति तत्र सीता तत्र नासीत् अतः तत्र सीतां विना सः
रामः जीवनं
हा कृतवान् इति एकवर्षं कृतवान् इति अतः
रामः
ऋते ऋते इति भिन्नः अस्ति कृते भिन्नः ऋते भिन्नः
रामः कस्याः ऋते एकवर्षम् अवसत्
पञ्चमी हा समीचीनं भगिनि हा अस्तु अग्रे वेदा भगिनि
हा महोदय सीतायाः प्रिय श्रीरामः कस्याः प्रियः श्रीरामः
हा समीचीनम् अस्तु इदानीं सर्वे उक्तवन्तः इति मन्ये अस्तु हा वंशीसुधा भगिनि अग्रे वंशीसुधा भगिनि अग्रे नास्ति वा अस्तु नरेश महोदय
सीतायाम् आदर्शनारी गुणाः सन्ति कस्यानारी गुणाः सन्ति
सप्तमी भक्ति समीचीनं महोदय अस्तु अस्तु तर्हि अग्रे सरामः इदानीं तत्र नूतनव्यासः अस्तु तत्र हा सुजाता भगिनी आरम्भं करोति वा
सर्वनामशब्दस्य एव वाक्ये
सम्यक्तया न श्रूयते महोदय
हा भगिनि किञ्चित् उच्चैः वदतु भगिनि
अपि
किञ्चित् न न न भगिनि न भगिनि हा इदानीम् इदानीं मध्ये सम्यक् आसीत् वदतु भगिनि इदानीं
एकवारं पठामि
हा प्रथमवाक्ये हा पठतु भगिनि हा
प्रथमवाक्ये प्रयुक्तस्य सर्वनामशब्दस्य एव उचितं रूपं द्वितीये वाक्ये रिक्तस्थाने लिखत सम्यक् अस्ति वा महोदय
हा इदानीं सम्यक् अस्ति भगिनि हा इदानीम् उदाहरणं पठित्वा द्वितीयं करोतु
यदा इदं महाभारतम् अस्मिन् भगवत् महाभारतम् अस्मिन् भगवद्गीता वर्तते
अस्मिन् अस्मिन् नाम अस्मिन् कस्मिन् महाभारते महाभारतस्य सप्तमी अस्मिन् महाभारते भगवद्गीता
वर्तते
हा इदानीं द्वितीयं करोतु
कपाटिकासु
व्याख्यानग्रन्थाः
सन्ति व्याख्यानग्रन्थाः सन्ति कपाटिकासु सप्तमी बहुवचनम् अस्ति न
समीचीनं भगिनि हा सप्तमी बहुवचनम् अस्ति अतः
तासु कपाटिकासु व्याख्यानग्रन्थाः सन्ति
हा समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे उषा भगिनि
आं महोदय तौ विजयिनौ विजयीभ्यां भगवद्गीतां ददातु भ्यां भगवद्गीतां ददातु विजयीभ्यां ददातु चतुर्थी विभक्ति अस्ति एताभ्यां न तेभ्यः न ताभ्यां
समीचीनं
ताभ्यां विजयीभ्यां भगवद्गीतां ददातु
हा समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
महोदय तत्र इमे ज्ञानिनः ज्ञानिनः भगवान् इच्छति तत्र बहुवचने इमे तत्र अयम् इमौ इमे सहतौते अस्तु अतः तत्र एतान् अस्ति इमौ अस्ति इमान् अस्ति इमान् इमान् इमे ज्ञानिनः इमान् ज्ञानिनः भगवान् इच्छति
हा इमे ज्ञानिनः इमान् ज्ञानिनः भगवान् इच्छति इदानीं तत्र विभक्ति का अस्ति
तत्र द्वितीया विभक्ति
द्वितीया विभक्ति
कर्मपदं भवति
समीचीनं भगिनि हा अस्तु अस्तु अग्रे नरेश महोदय
महोदय सा भगवद्गीता एकादश अष्टादश अध्यायेषु श्लोकाः सन्ति अत्र सप्तमी विभक्ति अध्यायेषु तस्याम् अष्टादश अध्यायेषु सप्तसप्तमे किं
सप्तशत श्लोकाः
श्लोकाः सन्ति तस्याम् तस्याम् अष्टादश अध्यायेषु
समीचीनं महोदय सप्तशतश्लोकाः सन्ति समीचीनं हा धन्यवादः महोदय अस्तु वेदभगिनी
प्रश्नः महोदय सा भगवद्गीता इति अस्ति गीता भगवद्गीता स्त्रीलिङ्गे अस्ति न महोदय भगवद्गीता भगवद्गीते भगवद्गीताः अपि अस्ति वा महोदय
गीता तत्र लता शब्दवत् अस्ति खलु भगिनि
न न महोदय भगवद्गीता एकमेव न महोदय
हा किन्तु यदि तत्र अनेकानि पुस्तकानि सन्ति तत्र सर्व प्रत्येकपुस्तकं तत्र भगवद्गीतापुस्तकमेव अस्ति चेत् तत्र अनेकाः भगवद्गीताः सन्ति इति वक्तुं शक्नुमः खलु
पुस्तकविषये
हा हा पुस्तकविषये तत्र अनेकाः भगवद्गीताः सन्ति तत्र यदि तत्र केवलं मूलम् आवश्यकं वा अथवा अनुवादसहितम् आवश्यकं वा अथवा व्याख्यानसहितम् आवश्यकं वा इति तत्र प्रश्नाः भवन्ति खलु अतः तत्र बहुवचने अपि भवति अस्तु अग्रे वेद भगिनि
हा महोदय एते यज्ञाः तत्र बहुवचनमस्ति एते यज्ञाः तदेव ये यज्ञेषु जपयज्ञः श्रेष्ठः यज्ञेषु येषु यज्ञेषु जपयज्ञः श्रेष्ठः
समीचीनं भगिनि अस्तु हा समीचीनम् अस्तु अग्रे प्रिया भगिनि
आं महोदय तत् विश्वरूपम् विश्वरूपात् अर्जुनः भीतः अभवत् तस्मात् विश्वरूपात् अर्जुनः भीतः अभवत् इति
हा समीचीनं भगिनि हा अस्तु वंशी सुरभगिनी अग्रे
आं महोदय इमे सम्पदौ सम्पदौ अस्ति तत्र दोषः अस्ति न महोदय इमौ सम्पदौ भवेत् न सम्पदौ इति द्विवचनरूपमस्ति सम्पदः सम्पदौ सम्पदाः इमे
समीचीनं इमे इति वचनं किम् इमे इति पदस्य
इमे तु पुल्लिङ्गशब्दः बहुवचनरूपमस्ति स्त्रीलिङ्गशब्दे द्विवचनमस्ति परन्तु तत् स्त्रीलिङ्गशब्दः अस्ति चेत् तत्र सम्पदे इति भवति नो चेत् परन्तु इमौ सम्पदौ
न न सम्पत् सम्पदौ सम्पदः इति उक्तवती खलु अपि स्त्रीलिङ्गम् अस्ति इदानीं तत्र पश्यतु इदं शब्दस्य स्त्रीलिङ्गरूपाणि एकवारं पश्यतु प्रथमविभक्तौ किम् अस्ति
ओ नपुंसकलिङ्गम्
न न न स्त्रीलिङ्गे एव
स्त्रीलिङ्गे एव
न न न अयम् अयम् इति तु पुल्लिङ्गरूपम् अयं
क्षम्यताम् इयम् इयम् इमे इमाः पुल्लिङ्गशब्दः अयं
न न किन्तु इदानीं स्त्रीलिङ्गमेव आवश्यकं खलु इदानीं तत्र स्त्रीलिङ्गे द्वितीय द्विवचनरूपं किम् अस्ति
इमे इमे अस्ति किल इयम् इमे इमाः
अस्तु इदानीं तत्र अस्तु इदानीं तत्र सम्पद् इति स्वीकरोतु सम्पत् स्त्रीलिङ्गे अस्ति खलु अथवा आपत् सम्पद् हा अतः तत्र इयं सम्पद् इति समीचीनं वा इयं सम्पद्
इयं सम्पत् समीचीनमस्ति
समीचीनम् इदानीं द्विवचने किम् अस्ति
इमे सम्पदौ भवति वा तत्र सम्पदौ ओ दकारान्तशब्दः वा
दकार हलन्तपदम्
ओ अस्तु
अतः तत्र हा हलन्तपदं कृ
सम्पदः सम्पदः नास्ति. अस्तु महोदय, क्षम्यतां.
यदि तावदेव
इमे सम्पदौ, सत्यं तत्र भ्रमः जातः. तत्र सम्पदोः देवी सम्पत् मोक्षाय भवति. इमे अस्ति किल, तत्र तु अनयोः भवति महोदय. अनयोः सम्पदोः देवी सम्पत् मोक्षाय भवति. अनयोः सम्पदोः देवी सम्पत् दैवीसम्पत् मोक्षाय, अनयोः सम्पदोः दैवीसम्पत् मोक्षाय भवति. अर्थः किम् अस्ति?
तत्र भगवद्गीतायां तत्र तत्र सम्पदौ अस्ति खलु, तत्र दैवीसम्पत् अपि अन्यत् किमस्ति? कोऽपि तत्र किं तत्र राक्ष आसुरिसम्पत् इति, अतः तत्र अनयोः दैवीसम्पत्
दैवीसम्पत् मोक्षाय
मोक्षाय भवति इति. समीचीनं भगिनि, अस्तु.
ललित
चिन्ता मास्तु भगिनि, तद्भवति एव.
पुल्लिङ्गशब्दः द्विवचने एव सौ इति भवति किल, तत्र
सत्यं भगिनि. चिन्ता मास्तु. अग्रे ललिता भगिनि.
अर्जुनः वदति ते मम बान्धवाः. अहं न हनिष्यामि. एतान् इमान् तान् सर्वे, द्वितीयविभक्ति बहुवचने अस्ति. ते मम बान्धवाः द्वितीयविभक्ति अपि तु प्रथममपि प्रथम बहुवचने अपि भवितुमर्हति, परन्तु अत्र ते मम बान्धवाः, तान् अहं न हनिष्यामि.
तान् बान्धवान्
हनिष्यामि.
तान् बान्धवान् अहं न हनिष्यामि. समीचीनं भगिनि. अस्तु,
हनिष्यामि.
न हनिष्यामि, सत्यं. अस्तु, अग्रे सुजाता भगिनि.
आं महोदय, श्रूयते वा?
श्रूयते भगिनि.
इदं शास्त्रं शास्त्रे उत्तम
उक्तं, शास्त्रे उक्तम्
उक्तम् अनुसृत्य जीवनीयम् जीवनीयं. शास्त्रे सप्तमी विभक्ति अस्ति.
अस्मिन्
उक्तम् अनुसृत्य
जीवनीयम्. अवगच्छति खलु भगिनि?
आम् आम् महोदय.
नाम किं शास्त्रे यद् उक्तम् अस्ति, तत्र यद् वचनम् अस्ति, तं वचनं, तम् उक्तम् अनुसृत्य अस्माभिः जीवनीयम्. समीचीनं. समीचीनं भगिनि. अस्तु, अग्रे नरेश महोदय.
महोदय, ताः धेनवः. धेनुषु एका धेनुः कपिला अस्ति. सप्तमी विभक्ति बहुवचन अस्ति. धेनुषु ताः ते तासु
तासु धेनुषु
धेनुषु एका धेनुः कपिला अस्ति.
एका धेनुः कपिला अस्ति. समीचीनं महोदय. अस्तु, इदानीं उषा भगिनि.
महोदय, एषः अतपस्कः. अतपस्काय गीताशास्त्रं न दातव्यम्. चतुर्थी अस्ति महोदय. एषः अतपस्तकः इत्युक्ते किम्?
अतपस्कः यस्य विश्वासः नास्ति इति मन्ये. नास्ति तत्र अत्र तत्र किं स्थापनीयमस्ति? एतस्मै एषः अतपस्काय
गीताशास्त्रं न दातव्यम्.
तत्र यस्य तत्र भगवती श्रद्धा नास्ति, तत्र सः अतपस्कः इति मन्ये. अस्तु, अग्रे शोभा भगिनी.
क्षम्यतां महोदय, एतत् वाक्यं मम पुस्तके नास्ति, कृपया पुनः एकवारं कृपया वदतु.
अस्तु भगिनि, तत्र द्वादशवाक्यम् अस्ति. एषः अतपस्कः अस्मै अथवा एतः एतस्मै हा एषः इति अस्ति दस्य हा अस्मै अपि भवितुम् अर्हति हा किन्तु एतस्मै हा एतस्मै अतपस्काय गीताशास्त्रं न दातव्यम् अस्तु
महोदय एकवारं वदतु महोदय कृपया सः एषः अयं भेदः किम् अस्ति
हा भेदः इदानीं मास्तु भगिनि तत्र इदानीं तत्र अयम् इति तत्र एषः इति स्वीकुर्मः इदानीं हा अग्रे वदामि किन्तु इदानीं मास्तु हा हा अस्तु अग्रे सराम तर्हि शोभा भगिनि अग्रे
आं महोदय तानि पुष्पाणि पुष्पेभ्यः उत्तमं भगवते अर्पयतु तानि पुष्पाणि तेभ्यः पुष्पेभ्यः उत्तमं भगवते अर्पयतु
हा तत्र इदानीं तत्र विभक्ति का
विभक्तिचतुर्थी अस्ति तत्र महोदय तेभ्यः भगवते इति अस्ति
किन्तु
भगवते पुष्पेभ्यः उत्तमं भगवते भगवते इति
अर्पयतु अस्ति अतः भगवते इति चतुर्थी सत्यं
चतुर्थी अस्ति आम्
किन्तु इदानीं पुष्पेभ्यः इति तत्र
ओ तेभ्यः पुष्पेभ्यः अमाङ्
तत्र हा न न न पञ्चमी पञ्चमी तस्मात् तस्मात् अथवा तेभ्यः 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 उत्तमं तत्र छित्वा नाम
तत्र षष्टि न भवति तस्य
तत्र किं भवति तत्र तस्मात् इति एव यतोहि तत्र किं तत्र किमस्ति तत्र फलं वृक्षात् पतति खलु तत्र किं भवति वृक्षः यस्मिन् स्थाने अस्ति तस्मिन्नेव स्थाने तिष्ठति खलु तत्र किन्तु फलमेव तत्र अन्यत्र गच्छति खलु तादृशमेव तत्र अनेकानि पुष्पाणि सन्ति तस्मात् तत्र
तत्र सम्बन्धः नास्ति तत्र किल केवलं तत्र अमाङ्ग् दोस् इति भवति
अतः पञ्चमी अत्र
पञ्चमी आम् आं महोदय
किन्तु अमाङ्ग् इति वदामः चेत् तत्र सप्तमी इति अर्थे भवति किन्तु तत्र फ्रम् दोस् इति अतः तत्र पञ्चमी इति समीचीनं भवति अस्तु
आं महोदय
अस्तु अग्रे वेदा भगिनि
महोदय पुस्तके पुष्पेभ्यः उत्तमं पृथक् करोतु
तदपि समीचीनमेव पृथक् करोतु तदपि समीचीनमेव
सेपरेट् कर
हा सत्यं भगिनि तत्र यत्र तत्र अहम् इदानीं तत्र पदं विस्मृतवान् तत्र चतुर्थी सम्प्रदाये इति सम्प्रदानम् इति वदन्ति तत्र पञ्चमी इति तत्र कदा इति कोऽपि स्मरति वा तत्र नाम तत्र यत्र ब्रेक् अस्ति सेपरेशन् अस्ति इति तत्र पञ्चमी इति अर्थे अतः तत्र फलं वृक्षात् पतति तत्र वृक्षः तत्रैव तिष्ठति अतः यद् तत्रैव तिष्ठति यस्य तत्र चरणं न तत्र तत्रैव तिष्ठति तस्य पदस्य एव तत्र तस्य पदार्थस्य एव तत्र पञ्चमी इति
अवधिभूतः इति अस्ति महोदय विभक्तिवल्लर्यां
हा अवधिभूतः अस्तु
अवधिभूतः एतदेव भगिनि
एतदेव तत्र किं भवति वयं मनसि अस्ति किन्तु तत्र कृतवन्तः पठितवन्तः किन्तु तद् वारं वारम् इति न पश्यामः किं भवति विस्मरामः धन्यवादः भगिनि हा अवधिभूतः अतः तत्र यः अवधिभूतः अस्ति तस्य पञ्चमी इति धन्यवादः भगिनि विभागः धन्यवादः समीचीनं अस्तु
अवधिभूतः इत्युक्ते कालम् अतीतः वा
तदपि भवति अवधिभूतः नाम तत्र यत्र सेपरेशन् अस्ति इति भगिनि अवधिः अस्ति अवधिभूतः इत्युक्ते तत्र किम् अस्ति तत्र बिकेम् सेपरेटेड् इति
यस्मात् पृथक् भवति
तत्र पूर्वम् अवधिः नासीत् किन्तु इदानीम् अवधिः अभवत् इति अस्तु तर्हि अग्रे प्रिया भगिनी
त्रयः गुणाः इमे त्रयः गुणाः तत्र पुल्लिङ्गे अस्ति तत्र त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्तुवन्ति त्रिभिः गुणैः त्रिभिः गुणैः तत्र ताभिः एभिः त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्नुवन्ति
हा समीचीनं भगिनि हा तत्र विमुक्ताः अत्रापि तत्र गुणैः विमुक्ताः अस्तु हा समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनि
ते वेदाः वेदानां भगवान् सामवेदः अस्ति वेदानां षष्ठी पुल्लिङ्गपदं तेषां वेदानां भगवान् सामवेदः अस्ति इति अस्ति
समीचीनं भगिनि वंशीसुत भगिनी अग्रे
आं महोदय करिष्यामि इमानि इन्द्रियाणि इन्द्रियेभ्यः परं मनः आभ्याम् इमानि इन्द्रियाणि इति नपुंसकलिङ्गे इन्द्रियं तु नपुंसकलिङ्गे अस्ति तस्य अतः आभ्यः इन्द्रियेभ्यः परं मनः महोदय
आभ्यः इति अस्तु आभ्यः तत्र एभ्यः इति खलु
एभ्यः नास्ति वा
एभ्यः एभ्यः एभ्यः
एभ्यः एभ्यः इन्द्रियेभ्यः परं मनः सत्यम् आभ्यः तु स्त्रीलिङ्गशब्दः अस्ति
एतेभ्यः अथवा एभ्यः इन्द्रियेभ्यः परं मनः
एतेभ्यः न एतेभ्यः कथम् एभ्यः एव भवति न महोदय
एभ्यः एव किन्तु अर्थसमान तत्र एतेभ्यः न दत्तमस्ति खलु तत्र इमानि एव दत्तमस्ति अतः एभ्यः एव सत्यं समीचीनम्
एतत् वाक्यमहं न अवगच्छामि एभ्यः इन्द्रेभ्यः परं मनः कथम् आयाति एभ्यः पञ्चमी अस्ति वा अत्रापि एतदपि अस्ति वा
तत्र परम् इति अस्ति चेत् भगिनि तत्र परम् इति अस्ति चेत् तत्र पञ्चमी इति
अस्तु परम् इत्युक्ते पूर्वं परम् इति अस्ति
हा पूर्वं परं नाम तत्र इन्द्रियेषु इन्द्रियेषु एकं मनः इति नास्ति
अस्तु अस्तु
हा इन्द्रियेषु तत्र इन्द्रिय हा इन्द्रियेभ्यः परं मनः नाम तत्र तस्य उपरि अस्ति इति हा तेषाम् उपरि अस्ति इति मनः
परन्तु महोदय परम् इत्युक्ते अग्रे इति न वा
अग्रे इति अपि तदपि भवितुम् अर्हति भगिनि तत्र अथवा उपरि इति तत्र तदपि अर्थः अस्ति खलु
अस्तु 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 अहं न जानामि अस्तु धन्यवादः
भिन्नः अपि भवितुम् अर्हति न महोदय तत्र भिन्नः इति एभ्यः इन्द्रियेभ्यः भिन्नः मनः
परम् इत्युक्ते तत्र उपरि अस्ति तत्र उपरि नाम तत्र परम् इति अर्थे तत्र अधोभागे तत्र तत्त्व न न तत्र तत्त्वानां तत्र श्रेणी अस्ति खलु भगिनि
इन्द्रियाणां श्रेणिः अस्ति सत्यम्
इन्द्रियाः इन्द्रियाणि सन्ति किन्तु मनः तत्र हा यदि श्रेणी इति स्वीकुर्मः तत्र मनः उपरि अस्ति अतः अहं चिन्तयामि तत्र परं नाम तत्र उपरि अस्ति इति अस्तु अग्रे ललिता भगिनी
इमाः भगवतः विभूतयः भगवान् विभूतिभ्यः भिन्नोऽपि अस्ति आभ्यः एभ्यः ताभ्यः भिन्नोऽपि अस्ति तत्र आभ्यः विभूतिभ्य भिन्नो
तत्र विभूतयः इति अस्ति विभूतयः इति
बहुवचने अस्ति
हा इमाः अस्ति इमाः विभूतयः एकवचने किम् अस्ति
इयं भगवान् विभूतिः
इयं भगवतः विभूतिः विभूति खलु अथवा
विभूतिः
विभूति तत्र मतिशब्दवत् हा
मतिशब्दवत्
विभूतिः
विभूतिभ्यः पञ्चमी
भिन्नः भिन्नः पुनः भिन्नः
आभ्यः अथवा एभ्यः अपि
न न आभ्यः आभ्यः एव
आभ्यः ताभ्यः अपि समानं न ताभ्यः
किन्तु इमाः इति दत्तमस्ति हा सत्यं भगिनि हा ताभ्यः अपि
अतः आभ्यः
इदानीं पूर्णवाक्यम् एकवारं वदतु भगवान्
आभ्यः विभू इमाः भगवतः विभूतयः भगवान् आभ्यः विभूतिभ्यः भिन्नोऽपि अस्ति
अतः नाम तत्र
अस्ति
भिन्नः अपि अस्ति नाम तत्र विभूतयः इति तत्र सप्तमी किम् अस्ति विभूतयः इति
विभूतेषु
मतिषु विभूतिषु हा तत्र भगवतः भगवान् विभूतिषु अपि अस्ति किन्तु विभूतिभ्यः भिन्नः अपि अस्ति इति अतः तत्र अपि इति अस्तु अग्रे हा धन्यवादः भगिनि अस्तु अग्रे वेदा भगिनि
महोदय अयं योगमार्गः अयं योगमार्गः पुल्लिङ्गशब्दे अस्ति योगमार्गेण भगवन्तं प्राप्तुं शक्यते योगमार्गेण भगवन्तं प्राप्तुं शक्यते योगमार्गेण तृतीया विभक्ति तत्र अनेन योगमार्गेण भगवन्तं प्राप्तुं शक्यते
हा समीचीनं भगिनि हा अनेन योगमार्गेण भगवन्तं प्राप्तुं
शक्यते
समीचीनं भगिनि अस्तु अग्रे उषा भगिनि
आं महोदय इमे निष्ठे स्तः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति इमे निष्ठे स्तः द्विवचने अस्ति निष्ठयोः निष्ठयोः अनयोः एनयोः न अवयोः न अनयोः अनयोः निष्ठयोः अन्यतरयोः मोक्षम् अन्यतरयोः मोक्षं प्राप्नुवन्ति
हा तत्र इमे निष्ठे स्तः द्विवचने अतः तत्र अनयोः निष्ठयोः अन्यतरयोः
मोक्षं प्राप्नुवन्ति
हा तत्र मोक्षं प्राप्नुवन्ति हा
प्राप्नुवन्ति
हा हा सत्यं 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 तत्र
प्राप्नुवन्ति इति अस्ति अत्र कर्ता तु जनाः कोऽपि अस्ति जनाः मोक्षं प्राप्तवन्ति अनयोः निष्ठयोः अन्तरयोः जनाः मोक्षं प्राप्नुवन्ति इति अस्ति
हा समीचीनं भगिनि हा 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 तत्र अतः तत्र जनाः इति न दत्तम् अस्ति सत्यं तत्र निष्ठाद्वयम् अस्ति किन्तु तत्र
अन्यतरयोः मोक्षं प्राप्नुवन्ति अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति
हा तत्र तत्र पङ्क्तिद्वयम् इति चिन्तयतु तत्र ये जनाः तत्र प्रथमपङ्क्तौ सन्ति तत्र ते प्राप्नुवन्ति किन्तु द्वितीयपङ्क्तौ न प्राप्नुवन्ति तत्र तादृशं तत्र अर्थः निष्ठद्वयम् अस्ति तत्र एकः एकस्मिन् सन्ति तत्र ते एव तत्र प्राप्नुवन्ति इति हा तत्र प्रियभगिनी धन्यवादः तत्र जनाः इति स्थापनीयमस्ति हा धन्यवादः भगिनि हा नो चेत् तत्र कर्तृपदं किम् इति तत्र क्लेशः भवति धन्यवादः भगिनि हा अस्तु अग्रे हा मोक्षं कर्मपदं सत्यं भगिनि कर्मपदम् अस्ति हा अस्तु नरेश् महोदय अग्रे
महोदय एताः त्रैविधाः विद्याः एताः त्रैविद्याः विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति एतत् षष्टिविभक्ति बहुवचनमस्ति एतासां विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति एतासां
समीचीनं महोदय हा एतासां समीचीनं महोदय वंशीसुध भगिनि अग्रे
आं महोदय एतौ
एताः त्रैविध्याः अभवत् किल एतौ क्षराक्षरौ पुरुषौ अस्तु क्षराक्षरौ पुरुषौ इति पुल्लिङ्गशब्दः द्विवचनमस्ति पुरुषाभ्यां सः लोकः प्रवर्तते पुरुषाभ्यां सः लोक तृतीयाविभक्तिः अस्ति एतः अभ्यां एताभ्यां महोदय एताभ्यां पुरुषाभ्यां सः लोकः प्रवर्तते अस्तु आभ्याम् इति स्त्रीलिङ्गशब्दः अस्ति आवाभ्याम् इति अस्मत् शब्दस्य तृतीयाविभक्तिः अस्ति अस्तु महोदय
सर्वनामशब्दाभ्याम् पुरुषाभ्यां सः लोकः प्रवर्तते नाम तत्र किम् अस्ति अर्थः क तत्र
इत्युक्ते एतैः पुरुषैः सह
तादृश तत्र लोकः अस्ति अतः नाम तादृश ये जनाः सन्ति लोके तत्र इति
क्षराक्षरो इत्युक्ते किं महोदय क्षराक्षर
क्षर अपि अक्षरः
क्षर विच् इस् डिस्ट्रायड् विच् विल् नाट् बि डिस्ट्रायड् क्षरः अक्षरः
अक्षरः
तत्रापि इमे निष्ठे स्तः तादृशमेव अस्ति किल एतौ क्षर अक्षरौ पुरुषौ
निष्ठा
एताभ्यां पुरुषाभ्यां सः लोकः प्रवर्तते क्षर अपि अक्षर
तत्र क्षर अक्षर तत्र द्विवचने इति एव
पुल्लिङ्गशब्दः क्षर अक्षरः न
क्षरः अक्षरः पुरुषः
निष्ठा तत्र निष्ठा तु स्त्रीलिङ्गशब्दः अस्ति
न तत्र क्षर अपि अक्षरौ तत्र पुरुषौ इत्युक्ते
तत्र द्वैविध्यम् अस्ति इति वा तत्र
आं महोदय तत्र क्षर अक्षर अर्थे इति अर्थे
ओ तत्र निष्ठा यदस्ति तदेव
तादृशं तत्र अपि अस्ति
प्रायशः अस्ति भगिनि भवेत्
अस्ति वा इति
न जानामि भगिनि द्रष्टव्यमस्ति द्रष्टव्यमस्ति भगिनि
तत्र किञ्चित्
तत्र प्रिया भगिनी जानाति वा
क्षमतां न अवगच्छामि प्रश्नः कः
क्षर अक्षर पुरुषः इति तत्र
अस्तु न जानामि महोदय
अस्तु अस्तु
न अवगतवती
शोभा भगिन्याः प्रश्नः पुनः वदतु भगिनि
तत्र प्रश्नः तत्र कीदृशौ पुरुषौ इति प्रश्नः मम तत्र पुरुषौ इत्युक्ते सामान्यपुरुषौ न इति किल
एवं वा तत्र श्लोकं द्रष्टव्यं
पुरुषः नाम तत्र महिला अपि भवितुम् अर्हति इति तत्र अतः तत्र जनाः इति अर्थे इति वा अथवा
जनाः इति अर्थे नास्ति इति मन्ये महोदय
अस्तु अस्तु भगिनि अस्तु अस्तु भगिनि तत्र द्रष्टव्यम् अस्ति भगिनि न जानामि इदानीं
पश्यामि अनन्तरम्
अस्तु अस्तु भगिनि
धन्यवादः महोदय आभ्याम् आवाभ्याम् अस्ति किञ्चित् भ्रमः जातः सर्वदा
किन्तु सम्यक् उक्तवती भगिनि तत्र एताभ्यां
परन्तु अनयोः आवयोः अस्मत् शब्दस्य रूपम् अस्ति अतः एतत्तु अयं शब्दस्य
सत्यं भगिनि सत्यं सत्यम् अस्तु अग्रे शोभा भगिनी भवती एव अग्रे
आं महोदय तत्र इयं माया मायां तरन्ति भक्ताः तत्र इयम् इत्यस्य तत्र मायामिति द्वितीयविभक्तौ कर्मपदं भवति इमाम् इति द्वितीयविभक्तौ
कर्मपदमस्ति
इयं माया इमां मायां तरन्ति भक्ताः
भक्ताः इमां मायां तरन्ति समीचीनं भगिनि अस्तु अग्रे सुजाता भगिनी अग्रे श्वेत भगिनी
सत्त्वं रजः तमः इमे भावाः भावैः लोकः मोहितः अस्ति भावैः तृतीयविभक्ति अस्ति इमे द्वितीय द्वितीया विभक्ति अस्ति
न न तृतीया इति उक्तवती हा अस्तु अस्तु हा
इमे इमे भावाः इमे इमे भावाः
इदानीम् इमे इति पदस्य वचनं किम् इमे इति बहुवचनं
इमौ इमे
हा अयम् इमौ इमे समीचीनं हा इदानीं तत्र इम इदानीं तत्र तृतीयविभक्ति इमे इति पदस्य तृतीयविभक्तिरूपं किम् अस्ति
तृतीयाविभक्तिरूपमस्ति आभिः
एभिः एभिः स्त्रीलिङ्गे आभिः पुल्लिङ्गे एभिः
एभिः भावैः लोकः मोहितः अस्ति
हा एभिः भावैः लोकः मोहितः अस्ति समीचीनम् अस्तु प्रिया भगिनी अग्रे
कक्ष्या तत्र प्रचलति कक्ष्यां गमिष्यामि अत्र कक्ष्या कक्ष्या इति त्रिलिङ्गपदं तां कक्ष्यां गमिष्यामि इति अस्ति
हा तां समीचीनं भगिनि हा धन्यवादः अस्तु ललिता भगिनी अग्रे
हा मम पुस्तके तदेव
तावदेव अस्ति वा भगिनि हा अस्तु भगिनि अस्तु 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 अतः तत्र अन्यत् कोऽपि अन्य कोऽपि करोति भवती अग्रिम अभ्यासं
करोतु
एकनिमिष भगिनि तत्र यद् वाक्यमस्ति तत् अन्य कोऽपि पठतु तत्र नरेश महोदय अग्रिमम् अन्तिमं वाक्यं पठति वा महोदय
भगवद् उक्तयः अमृततुल्याः सन्ति अहं सङ्गृह्णामि सङ्गृह्णामि अत्र तु बहुवचन अस्ति स्त्रीलिङ्ग् अस्ति ताः 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 अहं सङ्गृह्णामि
हा तत्र भगवदुक्तयः इति अस्ति तत्र एकवचने किम् अस्ति
भगवदुक्ति
अमृत भगवदुक्तिः हा अमृततुल्यः अस्ति इदानीं इदानीं बहुवचने भगवत् भगवदुक्तयः
तुल्याः सन्ति
हा ताः अहं सङ्गृह्णामि समीचीनं महोदय अस्तु हा समीचीनं हा अस्तु तर्हि तत्र
महोदय द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थो क्षर उच्यते there are two kinds of beings in creation the kshar perishable and the akshar imperishable the perishable are all beings in the material realm the imperishable are the liberated beings iti dattam asti mahoday
dhanyavada bhagini dhanyavada ha dhanyavada bhagini ha kshara akshara astu dhanyavada bhagini usha bhagini dhanyavada astu tari idanim agre gachhamah इदानीं तत्र अस्तु तत्र प्रायशः तत्र किं कुर्मः तत्र प्रहेलिका यत् अस्ति तद् एकवारं पठामः तत्र ललिताभगिनी तत्र अधोभागे प्रहेलिका विशेषः इति अस्ति तत् अस्ति खलु भवत्याः पुस्तके
अस्ति
हा अस्तु
वृक्षाग्रवासि न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः वृक्ष वृक्षाग्रवासी वृक्षे अग्र
पक्षिराजः अधोभागे अपि दत्तमस्ति एषः
हा एषः वृक्षस्य उपरि उपरि निवसति किन्तु पक्षिणा एतस्य त्रीणि नेत्राणि सन्ति किन्तु एषः न शिवः एषः त्वक् त्वक् वस्त्रं धरति किन्तु न योगी एषः जलं धरति किन्तु न घटः न वा जलधरः मेघः एषः कः
हा इति अस्तु
नारिकेरं न त्रिनेत्र
इति यदि पश्यामः तत्र सत्यं भगिनि सत्यं 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 समीचीनम् अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र
तत्र त्वग्वस्त्रं धरति तत्र किमस्ति त्वग्वस्त्रं धरति इत्युक्ते
त्वक् त्वक् इत्युक्ते स्किन् इति
त्वक्
त्वक् इति वस्त्रम् सत्यं भगिनि तत्र तत्र अनेकः अंशाः सन्ति तत्र तत्र
वृक्षस्य उपरि निवसति तत् तत् नास्ति परन्तु शिवः इव
तत् समीचीनमस्ति एतस्य त्रीणि नेत्राणि सन्ति किन्तु एषः न शिवः एषः त्वग्वस्त्रं धरति किन्तु न योगी एषः जलं धरति न किन्तु न घटः न वा जलधरः मेघः
मेघस्य अन्नः नाम किल महोदय
जलधरः
जलं धरति तत् जलधरः
जलधरः इति सत्यं भगिनि सत्यं भगिनि समीचीनमस्ति अस्तु अग्रे तत्र भवती वंशी सत भगिनी भवती एव अग्रिमं करोति वा तत्र
करोमि वा अस्तु महोदय आपदो दूरगामी च
अपदो
अपदो अपदो अपदो दूरगामी च साक्षरो न च पण्डितः अपदो दूरगामी च साक्षरो अमुकः स्फुटवक्ता किमस्ति
स्फुटवक्ता
अमुकः ओ अस्तु अमुकः स्फुटवक्ता च यो जानाति स पण्डितः अपदो दूरगामी च साक्षरो न च पण्डितः अमुकः स्फुटवक्ता च यो जानाति स पण्डितः अग्रे पठामि महोदय एतस्य पादौ न स्तः परन्तु एषः दूरं गच्छति अस्मिन् अक्षराणि भवन्ति परन्तु न अयं पण्डितः अस्य मुखमेव नास्ति तथापि एषः विषयं सम्यक् निवेदयति अयं कः इति यः जानाति सः पण्डितः अहं तु न जानामि महोदय
न जानामि किन्तु पश्यामः तत्र किं किम् अस्ति
एतस्य पादौ न स्तः अस्तु परन्तु एषः दूरं अस्तु तत्र लेखः भवति वा पादौ न स्तः दूरं गच्छति अस्मिन् अक्षराणि भवन्ति परन्तु न अयं पण्डितः अस्तु अस्य मुखमेव नास्ति तथापि एषः विषयं सम्यक् निवेदयति अयं कः इति जानाति सः पण्डितः अस्तु
पत्रम् इति वा
पत्रं महोदय श्लोके तु आपदः दूरगामी गामीति च
अपदो अपदो अपदः
नै तत्पुरुषः किल
सत्यम् अपदः दूरगामी तत्र दूरं गच्छति
दूरगामी इति कीदृशशब्दः पुल्लिङ्गशब्दः महोदय
गामिन् गामिन् इति
गामिन् अस्तु
नकारान्तपदम्
आत्मन् शब्दः वद किल आत्मशब्दवत् गामी इति
गुणि गुणि शब्दवत् इति गुणिन् इति अथवा योगिन् योगिन् इति
साक्षरः अक्षरो स अक्षरः न च पण्डित
तत्र दूरगामी इति प्रायशः तत्र यस्य दूरगमनम् अस्ति अथवा इति प्रायशः तादृशं
साक्षरो
स अक्षरो न स योगः अक्षर नाम तस्य अथवा तस्मिन् अक्षराः अक्षरा तत्र अक्षराणि सन्ति इति स नाम तत्र योगः तत्र सः इति अर्थे
परन्तु तत् न योजनीयं न महोदय यदि सन्धिविच्छेदः अस्ति स अक्षरो न तत्
न तत्र सन्धि तत्र स इति तत्र प्रयोगः सन्धि इति न केवलं स अक्षरो इति तत्र सपत्नी तत्र किं तत्र तत्र वर्गे रमेशः सपत्नी आगतवान् इति तादृशप्रयत्नम् तत्र केवलं स अस्ति चेत् तत्र तृतीया इति विभक्तेः आवश्यकता नास्ति किन्तु तादृश अर्थः भवति
ओ अस्तु अस्तु स अमुकः स्फुटवक्ता अस्तु
अमुकः नाम तत्र किन्तु तत्र स्पष्टतया सर्वं वदति वक्ता तत्र
च यः जानाति स पण्डितः अस्तु सत्यं
समीचीनमस्ति अस्तु
इति द्वे प्रहेलिका प्रवेशः इति पुस्तके अस्ति
इति वा भगिनी भवती अन्यत् किमपि तत्र अन्यां प्रहेलिकां जानाति वा, वक्तुम् इच्छति वा?
तत्र बहवः अस्ति महोदय, अहम् अन्य वर्गे वदामि.
अस्तु अस्तु भगिनि. अतः उत्तमं तत्र उत्तमां योजनां प्राप्तवती भवती. अस्तु, समीचीनं भगिनि. अस्तु
अस्तु,
करोतु करोतु. अस्तु तर्हि इदानीं तत्र अग्रे तत्र सुजाता भगिनी, तत्र अग्रे तत्र श्लोकः अस्ति, तद् प्रथमश्लोकं पठति वा भगिनि?
पठामि, वक्तुं न शक्नोमि.
सर्वे कृत्वा प्रयासं कुर्मः भगिनि.
इदं शरीरं कौन्तेय क्षेत्रम्
इति अभिधीयते.
एतत् यो वेत्ति तं प्राहु क्षेत्रज्ञ इति
तद्विदः. नाम एतद् एतद् यो नाम एतद् यः वेत्ति जानाति तं प्राहुः. तत्र प्राहुः इत्युक्ते वदन्ति इति अर्थे, वदति इति अर्थे. प्राहुः क्षेत्रज्ञ इति तद् विदः.
क्षेत्रज्ञः ओके. तत् क्षेत्रज्ञ भवति यतोपि जानाति क्षेत्रज्ञ अस्ति महोदय.
तत्र इदं शरीरं कौन्तेय, कौन्तेयसम्बोधनम्, इदं शरीरं क्षेत्रम् इति अभिधीयते. अभिधीयते इत्युक्ते तत्र नामकरणमस्ति. तत्र शरीरस्य नाम किं, नाम किम् अस्ति? क्षेत्रम्. यत्र वयं क्षेत्रम् इति पश्यामः तत्र क्षेत्रम् इति पदस्य अर्थः कः? इदं शरीरम् इति. अतः तत्र इदं शरीरं क्षेत्रम् इति अभिधीयते. एतद् एतद् तत्र नाम यः यः जानाति. एतद् यः वेत्ति, एतद् यः जानाति, किं जानाति, यः यः क्षेत्रम् इदं शरीरम् इति यः जानाति तं क्षेत्रः इति
तद्विदः.
तद्विदः तत्र तद्विदः तत्र प्राहुः, तत्र प्राहुः इति एकम् अस्ति. तत्र प्राहुः तत्र उच्यन्ते इति तत्र तत्र इति तत्र क्षेत्रज्ञः इति तत्र तम् इयं यः जानाति एतद् क्षेत्रम् इति तत्र शरीरम् इति अस्ति तत्र क्षेत्रज्ञ क्षेत्रज्ञम् इति क्षेत्रज्ञः इति वदन्ति इति तावदेव.
धन्यवादः.
अस्तु भगिनि. अस्तु अस्तु अग्रे शोभा भगिनी अग्रिमं करोति वा?
आं महोदय. तत् क्षेत्रं यच्च यादृक्च यद्विकारी यतश्च यत् स च यो यत् प्रभावश्च तत् समासेन मे शृणु. तत्क्षेत्रं यत् च यादृक्च
यादृक् इति प्रातिपदिकं
यादृशः अस्तु. यादृक् च यत् विकारी यत् यतः च यत् एतत् स च यो यत् प्रभावश्च तत् समासेन मे शृणु. तत्र न जानामि महोदय. तत् क्षेत्रं यत् च
अस्तु भगिनि, प्रथमतया किं कुर्मः तत्र प्रथमतया न न प्रथमतया तत्र किं कुर्मः तत्र यत् कार्यमस्ति तत् कार्यम् अस्ति तत्र सर्वनामशब्दान् परिशीलयत इति तत् प्रथमतया कुर्मः तत्र तत् क्षेत्रं
यादृक् यादृक् इति तु सर्वनाम नास्ति, यत् विकारि यत् अस्ति पुनः, अपि च यत् यतः च अस्ति परं यतः इति
यतः 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 इति पञ्चमी इति तत्र यतः प्रभावश्च
तत्र पञ्चमी अर्थे अव्ययपदमस्ति वा
न न विभक्ति अस्ति यतः ओ क्षम्यतां न न यतः इति तत्र यत् उक्तं तत्तु तत्र अव्ययं किन्तु तत्र अत्र प्रायशः तत्र यतः इति अर्थे यत् इति यत् प्रभावश्च तत्र यतः यत् एव
यतः च यत्
यतश्च
तत् क्षेत्रं यत् च यादृक् च
किं भगिनि
विकारि
तत्र सर्वनामशब्दः भवति वा यः इति यत् शब्दस्य यः
यत् इति नपुंसकलिङ्गम् इति चिन्तयामि अस्तु
सत्यम्
अस्तु तत्र किं कुर्मः तत्र अस्तु तद् यत् इति यत् यत् इति चिन्तयामि भगिनि तत्र नपुंसकलिङ्गे अस्ति इति चिन्तयामि किन्तु प्रभावः तु किञ्चित् क्लेशः अस्ति तदनन्तरं तत्र तत् तदनन्तरं किम् अस्ति
तत् समासेन मे शृणु
मे शृणु अस्तु तत्र प्रायशः मां शृणु अस्तु तत्र अस्तु तर्हि तत्र किं कुर्मः तत्र एतान् श्लोकान् तत्र गृहे परिशील्य एकवारं परिशील्य अग्रिमे आगच्छामः नो चेत् लाभः न भवति अस्तु अस्तु तर्हि तत्र धन्यवादः भगिनि अस्तु तत्र
एकं प्रहेलिका प्रवेश पुस्तके अस्ति वदामि वा एकम्
अस्तु भगिनि अस्तु वदतु वदतु भगिनि
किमिच्छति नरः काश्यां भूपानां को रणे हितः को वन्द्यः सर्वदेवानां दीयताम् एकम् उत्तरम् किम् इच्छति नरः काश्यां किम् इच्छति मृत्यु भूपानां को रणे हितः रणे राजा किम् इच्छति विजय को वन्द्यः सर्वदेवानां कः सर्वदेवानां
वन्द्यः अस्ति
वन्द्यः अस्ति सर्वदेवानां दीयताम् एकम् उत्तरं को वन्द्यः सर्वदेवानां मृत्युञ्जय महोदय
समीचीनं धन्यवादः भगिनि अस्तु प्रहेलिका इति तत्र अस्माकं संस्कृतज्ञानं संस्कृतज्ञानस्य परीक्षां करोति अस्तु समीचीनमेव धन्यवादः भगिनि अस्तु तत्र प्रिया भगिनी तत्र अन्ते प्रार्थना वदति वा शान्तिमन्त्रं वदति वा भगिनि
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिश्शान्तिश्शान्तिः
धन्यवादः भगिनि धन्यवादः सर्वेभ्यो नमः अग्रिमे वर्गे मिलामः तत्र ईमेल् द्वारा सूचयन्तु तत्र कदा तत्र कर्तुम् इच्छन्ति तत्र दशनिमिषं यावत्.
अस्तु
महोदय, धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.